इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य अफ्रीका संघस्य 25th वर्षस्य आपद अवरोधि मूल संरचना सम्मेलने भाग ग्रहणे प्रसन्नतां प्रकटितवान्। CDRI इति संस्थां आभासीय माध्यमेन संबोधयता प्रधानमन्त्रिणा कार्याचरण कार्यक्रमाणां परिकल्पनायाः विकासशील राष्ट्रेभ्यः वित्तोपलब्धताया च भवतु इति सुनिश्चयं कर्तुं सबलं विचाराः प्रकटिताः।
We must design actionable programs and ensure developing nations access to finance. We consider small island developing states as large ocean countries. Due to their vulnerability, they deserve special attention. Strengthening early warning systems and coordination is crucial. This helps timely decisions and effective last mile communication.
श्री मोदिना आशा प्रकटिता यत् अस्मिन् सम्मेलने चर्चायां विभिन्नेषु विषयेषु विचाराः भविष्यन्ति। प्रधानमन्त्रिणा मोदिना फ्रांस देशस्य राष्ट्रपतेः इमानुएल मैक्रों इत्यस्य समर्थन प्रदाने तस्मै धन्यवादाः प्रदत्ताः। एतत् सम्मेलनं प्रथमं वारं फ्रांस देशे आयोजितम्। पीएम मोदी अर्थात प्रधानमंत्री मोदी ब्रिटेनस्य विदेश सचिवेन डेविड लेमी इत्यनेन सह मिलित्वा रणनीतिगत सम्बन्धेषु प्रगतेः प्रशंसाम् अकरोत्। प्रधानमंत्री नरेन्द्र मोदी नवदिल्ल्यां ब्रिटेनस्य विदेश सचिवेन डेविड लेमी इत्यनेन सह मिलितवान्। सामाजिक जनसंचार माध्यमेषु एकस्मिन् पटल मध्ये मोदी महोदयः उक्तवान् यत् भारत यूके व्यापक रणनीतिगत प्रगतेः कृते स्वस्य योगदानस्य प्रशंसां सः अकरोत्। विदेश मंत्री डॉक्टर एस जयशंकरः भारत यूनाइटेड किंगडम इत्येतयोः मध्ये सद्यः सम्पन्नं मुक्त वाणिज्यिक समन्वयेन सह द्विपक्षीय योगदान सम्मेलनं च महत्वपूर्णम् इति उक्तवान्। नवदेहल्यां यूके विदेश सचिवेन डेविड लेमी इत्यनेन सह मिलित्वा डॉक्टर जयशंकरः अवदत् यत् सन्धिः न केवलं द्विमार्गीय व्यापारं निवेशं प्रवर्धयिष्यति अपितु उभय राष्ट्रयोर्मध्ये द्विपाक्षिक सम्बन्धैः सह अन्येषु पक्षेषु अपि सकारात्मक प्रभावं जनयिष्यति। सः अवदत् यत् आपूर्ति मूल्य श्रृंखलानां सुदृढीकरणेऽपि अस्य योगदानं भविष्यति। डॉक्टर जयशंकरः पहलगाम इत्यत्र आतंक आक्रमणस्य दृढनिन्दायै आतंकवादं विरुध्य कृते युद्धे च भारतस्य समर्थनाय यूके सर्वकारं प्रति साधुवादान् प्रेषितवान्। सः अवदत् यत् भारतम् आतंकवादं विरुध्य शून्य सहिष्णुतायाः नीतिम् आचरति। सहभागिनश्च तद् अवगच्छन्तु इति अपेक्षते।
The recent conclusion of the India-UK FTA and the Double Contribution Convention is truly a milestone. It will not only propel our two-way trade and investment, but will also have a positive effect on other strategic aspects of our bilateral ties. It would also contribute to the strengthening of supply and value chains.
Pradhanamantrina proktam yat Bharate kasyapi akramanasya samuchitam uttaram pradasyate. केन्द्रीय गृहमन्त्री अमितशाह अद्य तमिलनाडोः मदुरै इत्यत्र भाजपादलस्य राज्यकोरसमितेः उपवेशनस्य अध्यक्षतां करिष्यति। कर्णाटकस्य मुख्यमन्त्री सिद्धारमैया गत बुधवासरे बेंगलुरोः चिन्नास्वामी प्राङ्गणे सम्मर्दने हतानां 11 जनानां परिजनेभ्यः साहाय्यराशेः 25 लक्ष प्रशासनेन घोषिता। दिल्ली आरक्षिदलेन शनिवासरे 660 बांग्लादेशीयाः नागरिकाः निगृहीताः। एते कतिपय वर्षैः नगरे अवैधरूपेण निवसन्ति स्म। फ्रेंच ओपन टेनिस स्पर्धा श्रृंखलायाम् अमेरिकायाः कोको गौफः महिलैकल स्पर्धायां पुरस्कृता। अपरत्र अद्य पुरुषैकल स्पर्धायां जेनिक सिनर कार्लोस अल्काराजश्च सम्मुखीकरिष्यतः इति वार्ताः।